एष रेडियो नेपालः सम्प्रति समाचारः श्रीयन्ताम् प्रवाचकः ध्रुव भट्टराई। सर्वकारेण उपरितनाया अरुण जलविद्युत परियोजनाया कृते विश्वकोषागारात् प्राप्तम् षष्ठे लक्षाणम् अमेरिकी देशीय डलर मुद्राणाम् सौविध्यपूर्णाम् ऋण सहायताम् स्वीकर्तुम् निर्णीतम् अस्ति। मन्त्री परिषद उपवेशस्य निर्णयान् सार्वजनिक कर्तुम् ह्यः सिंहप्रसादे आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च रेखा शर्मा उपरितन्या अरूण जलविद्युत परियोजनाया पूर्व कार्यार्थम् विश्वकोषात् प्राप्यमाणम् सौविध्यपूर्णम् ऋण सहायताम् स्वीकर्तुम् निर्णीतमिति असूचयत्। एवमेव मन्त्री परिषद गत मासस्य 29 दिवसस्य उपवेशेन संस्था पञ्जीकरणाय संचित धनाभिवृद्धये च गृहमाणे शुल्के प्रदानेन सम्बद्धां सूचनां प्रकाशयितुं बाध्यकारी श्रम सम्बद्ध विधेय संशोधनाय एकीकरणाय च विधेय निर्माणार्थं स्वीकृतिं प्रदातुं च निर्णीतमिति मन्त्री शर्मा अबोधयत्। मन्त्री शर्मा उपवेशेन औद्योगिक क्षेत्र व्यवस्थापन संस्थानस्य अध्यक्षपदे बाबुराम पन्तम् नियुक्तम्। जटामांसी वनस्पति व्यवस्थापन निकायस्य रूपेण वन महाशाखा कार्यालयं निर्धारयितुं च निर्णीतमिति अज्ञापयत्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः नेपाली प्रतिनिधिमण्डलस्य नेतृत्वं विधाय संयुक्त राष्ट्रसंघस्य अष्टसप्तम्या महासभायां भागं ग्रहीतुम् अमेरिका देशस्य न्यूयॉर्क नगरं प्राप्तो वर्तते। प्रधानमन्त्रिणं प्रचण्डं परराष्ट्रमन्त्री एनपी साउद अमेरिका देशस्य कृते नेपाली राजदूत श्रीधर खत्री संयुक्त राष्ट्रसंघस्य कृते नेपालस्य स्थायी नियोगस्य प्रमुख लोकबहादुर थापा च स्वागत वचो व्याहरन्। प्रधानमन्त्रिण प्रचण्डस्य संयुक्त राष्ट्रसंघस्य महासभा भायम् अस्यैव आश्विनस्य चतुर्थी दिवसे सम्बोधनस्य कार्यक्रमो वर्तते। जनपद सर्वकार्याधिकृतस्य कार्यालयेन 61 किलो परिमाणस्य सुवर्णस्य तस्करी प्रकरणे ह्य 39 जनानां विरूद्धे काष्ठमण्डप जनपद न्यायालये न्यायिक प्रकरणं पञ्जीकारितं वर्तते। नेपाल प्रहरण केन्द्रीय अनुसन्धान निकायस्य अध्ययन प्रतिवेदनस्य अनुसारेण न्यायिक प्रकरणमिदं पञ्जीकारितमिति काष्ठमण्डप जनपद न्यायालयस्य श्रेष्ठदार पदीय कौशलेश्वर ज्ञवाली अज्ञापयत्। एतस्मिन् न्यायिक प्रकरणे अब्ज 350 कोटीनां 30 लक्षाणां 91,000 रूप्यकाणां हानि वित्ताभियाचनं विहितं वर्तते। हेटौडा स्थानीय चिकित्सकयो विहितस्य आक्रमणस्य पश्चात् आन्दोलनरतानां चिकित्सकानां सर्वकारेण संगठितस्य वार्ता समस्या मध्ये षट्सूत्रीय सहमतिर्धृता वर्तते। स्वास्थ्य मन्त्रालय पूर्विद्यु विहितायां वार्तायां हेटौडा वर्तिनी सञ्चो चिकित्सालय चिकित्सकयो ताडकानां जनानां विरूद्धे विध्यनुसारेण दण्ड प्रक्रिया अग्रे वर्धापनम् नेपाल चिकित्सक संघेन चिकित्सालय पिधान प्रवृत्ति आन्दोलनस्य कार्यक्रमाणां प्रत्यावर्तनम् चेति सहिता षट्सूत्रीय सहमतिर्धृता वर्तते। गत भाद्रमासस्य 27 दिवसे हेटौडा वर्तिन सञ्चो चिकित्सालयस्य डाक्टर विकास थापा डाक्टर प्रशान्त बिडारी च चिकित्सालय रुग्णान् उपचारे संलग्नता एव समय ताडितौ आस्ताम्। अद्य भाद्र शुक्ल तृतीया तिथौ हिन्दू महिला उपवास पुरस्सरम् हरितालिकाय व्रतम् आचरन्ति। अस्मिन् पर्वणि उमा महेश्वरयो पूजन स्थापने विधीयते। अस्य व्रतस्य प्रभावेण अविवाहिता महिला सुयज्ञवरम् विवाहितास्य अखण्ड सुख सौभाग्य लभन्ते इति शास्त्रीम् वच उपलभ्यते। पुरा हिमालय तनया उमा पशुपतिम् पतिम् बरिदुकामा निर्जलम् उपस्य व्रतमिदम् समाचरत् यस्य प्रभावेण सा स्वाविलसितम् पतिम् अवाप ततः प्रभृति सौभाग्य कामासु सु अस्य व्रतस्य अनुष्ठान परम्परा प्रारब्ध इति हरितालिकाय महत्त्वस्य सम्बन्धी इतिवृत्तम् उपलभ्यते। अस्मिन् दिने नूतनानि वसनानि विविधानि आभूषणानि च परिधाय भजन कीर्तन नर्तनादिषु व्यापृता नार्य स्त्री पशुपतिनाथ मन्दिरे अन्येषु शिवालय परिसरेषु च दृश्यन्ते। पत्यु चिरायुष्य कामनया दाम्पत्य जीवनस्य सुखाभिलाषेण च व्रतविदम् हिन्दू महिलासु प्रचलितम् अस्ति। अत्रान्तरे एतस्य पर्वण अवसरे पशुनाथ मन्दिरस्य दर्शनाय आगत भक्तजनानां कृते आवश्यक व्यवस्थापनं विहितमिति पशुपति क्षेत्र विकास कोषो ज्ञापयति। पशुपतिनाथस्य दर्शनाय भक्तजनानां सहजीकरणार्थं चतुर्भ्य स्थानेभ्य पंक्तिर्व्यवस्था विहिता वर्तते। उपलक्ष्यस्मिन् राष्ट्रपति रामचन्द्र पौडेला शुभकामना सन्देशम् ददत्। पर्वेतम् मन नेपाली महिलाभि सनातन सांस्कृतिक पर्वण रूपमा समायोजति इति चर्चयन् अनेन पर्वणा धार्मिक सांस्कृतिक च महत्तम निरूढम् अस्तीति उल्लिखति। सन्देशे राष्ट्रपति पौडेला पर्वेदम् विद्यमानानाम् लैंगिक जातीय विभेद सहितानाम् सर्वविधानम् असमानतानाम् समापन पूर्वकम् समतामूलक समाजस्य निर्माणम् प्रति अग्रेसरताय उत्प्रेरणम् प्रददातु इति शुभेच्छाम् व्यनक्ति। उपराष्ट्रपतिना रामसाय प्रसाद यादवेन प्रदत्त शुभकामना सन्देशे आधुनिकीकरणस्य नाम्नी हरितालिका पर्व उच्छृंखलनात्रोद्धव्यमिति उल्लिखितं वर्तते। सभामुख देवराज घिमिरे स्वस्य शुभकामना सन्देशे पर्वेतं धार्मिक सांस्कृतिक सामाजिक चेतनाय अभिवृद्धये महत्वपूर्णमस्तीति उल्लिखति। नेपाली कांग्रेस दलस्य सभापति पूर्व प्रधानमन्त्री च शेरबहादुर देउवा स्वस्य शुभकामना सन्देशे अस्माकं देश नैकै धर्म संस्कृति पर्ववि समृद्ध स्थिति चर्चयन् एतादृशानि पर्वाणि अस्माकं परिचय गौरवं च सन्तीति उल्लिखति। अद्यैव शिल्पीभि विश्वकर्म सम्पूज्य आराध्य च वास्तु दिवस विश्वकर्म पूजा च समायोज्यमान स्थ विभिन्नासु शिल्पशालासु भगवतो विश्वकर्मण बालुकाय मूर्तिम निर्माय चित्रम सवेदि प्रपूज्य आराध्य च दिवसोऽयं समाद्रियते। पर्वोत्सवान् लक्ष्यीकृत तास्करस्य मूल्यवृद्धि मिश्रणस्य कृत्रिमाभावस्य च निरोधनत्वेन अनुगमनाय सांसदै बलं प्रदत्तम् अस्ति। उद्योग वाणिज्य श्रम उपभोक्तृ हित समिति दैनिक उपभोग्य खाद्य वस्तूनाम् आपूर्ति व्यवस्थापन सम्बन्धी राष्ट्रिय उपभोक्तृ हित मञ्चात् प्राप्तं प्रतिवेदनम् आधृत्य बिम्ब्रष्टुम् यः सिंहप्रासादे उपविष्टि उपवेशे सांसदा पर्वोत्सवान् लक्ष्यीकृत जायमानानां तास्कर्य मूल्यवृद्धि कृत्रिमाभावानां निरोधनत्वेन अनुगमनस्य कार्यम् प्रभावकारी विधातुं बलं प्रादुः। सांसदा सरकारा तण्डुल प्रवृत्तिनां दैनिक उपभोग्य वस्तूनां अनावश्यक मूल्यवर्धकान् कृत्रिमाभावस्य सर्जकांश जनान् कठोरेण दण्डयितुम् अयाचन्त। सांसदा आपणे सर्करापूर्तिम् व्यवस्थितां विधातुम् सर्वकारीय स्वामित्वे विद्यमानान् सर्करोद्योगान् प्रभावको रूपेण सञ्चालयितुम् च बलं प्रादुः। राष्ट्रिय उपभोक्तृ मञ्चस्य अध्यक्ष प्रेमलाल महर्जन प्रतिवेशिना भारतेन अधुनापि सर्करा तण्डुल आलुक पलाण्डु प्रभृतीनां खाद्यवस्तूनां निर्याताय विधीयमानम् अवरोधनम् अपाकर्तुम् नेपालेन तत्कालम् प्रयासो विधेयः। आगामी दिनेषु अत्यावश्यक खाद्यवस्तुषु आत्मनिर्भरत्वेन कृषकेभ्यः प्रोत्साहनम् विधेयम् इति च धारणाम् उपस्थापयत्। सार्वजनिक लेखा समित्या महालेखा परीक्षकस्य कार्यालयेन दर्शितान् अनियमेन व्ययीभूत वित्तादि विषयान् अध्येतुम् नव उपसमितय संघटिताः सन्ति। समिते ह्य उपविष्टेन उपवेशन एकविंशत्या मन्त्रालयानां विंशत्या सांविधानिक आयोगानां च महालेखाया दर्शितान् अनियमेन व्ययीभूत वित्तादि विषयान् अध्येतुम् मन्त्रालयगत विषयान् वर्गीकृत्य नव उपसमितय संघटिताः वर्तन्ते। उपवेशन पाचनेन विकृत संस्थानै अनुमतिम् विना क्षमतात अधिकानाम् इन्धन भाण्डानाम् विक्रयण वितरणस्य सर्वकार्य यानानाम् प्रयोगस्य अवस्थायस्य विषये सूचना याचनायै च निर्णीतम् वर्तते। अर्थमन्त्री डाक्टर प्रकाश रणमहत भाषते सर्वकारण देशम जनताम च केन्द्रबिन्दु निधाय कार्यम विधीयते। ह्य ललितपुरस्य गोदावरी नगरपालिका एकादशवटा क्षेत्रस्य वज्रबाराई चापागाउँ चिकित्सालयस्य प्रस्तावित भवनस्य शिलान्यास कार्यक्रमे अर्थमन्त्री डाक्टर महत विकास निर्माण योजनाय सञ्चालनस्य समय सर्वकारण देशस्य हितानुकूलतया जनताय आवश्यकताम् ध्यात्वा कार्यम विधीयते इत्यवोचत। अर्थमन्त्री डाक्टर महत नेपाली विद्यमानसु सम्भावना मृत्युपार्जनानां सर्जनस्य कार्येषु च अनुकूल सन्देश प्रवाहणम् विमर्शनम् च सर्वेभ्य स्तरेभ्य विधातव्य इति भाषमाण अनेन कारेण आत्मविश्वास वर्धिष्यति इति अतर्कयत। अर्थमन्त्री डाक्टर महत द्वापञ्चाशदधिकद्विसहस्रतमे विक्रमवर्षे नेपालीनाम् आयु सामान्यत चतुपञ्चाशत वर्षाणि आसन् सम्प्रति वर्धित एकसप्तति वर्षाणि प्राप्तानीति ज्ञापयन् आगामी दिनेषु इमान सूचकांकान अतिरिक्त समीचीनान विधातुम् प्रत्येकम् नागरिकाय गुणस्तरीय स्वास्थ्य सौविध्यानाम् सुनिश्चयनम् आवश्यकम् अस्ति इति धारणाम् व्यक्तवान्।